राम गीता जी का पाठ तीसरा अध्याय श्लोक 22 से 32 तक। राम
वसुदेव सुतं कंसचानूरमर्दनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुम् मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ज्ञानवाप्तमवाप्तव्यं वर्ष एव च कर्मणि यदिहं न वर्तेयं जातु कर्मण्यतन्द्रित मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहं शङ्करस्य च कर्ता स्यामुपहर्ण्यामि महाप्रजा सक्ता कर्मण्य विद्वांसो यथा कुर्वन्ति भारत कुर्याद्विद्वांसता सक्तश्चिकीर्षोर्लोकसङ्ग्रहम् न बुद्धिभेदं जनये ज्ञानं कर्मसङ्गिनः दोषये सर्वकर्माणि विद्वान्युक्तः समाचरन् प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः अहङ्कारविमूढात्मा कर्ताहमिति मन्यते तत्त्वविद्तु महाबाहो गुणकर्म विभागयो गुणागुणेषु वर्तन्त इति मत्वा न सज्जते प्रकृतेर्गुणसम्मूढा सज्जन्ते गुणकर्मसु तान् कृष्णविलोमन्दान् कृष्णविन्नविचालये मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा निराशीर्निर्ममो भूत्वा युज्यस्व विगतज्वर ये मे मतविदं नित्य मनो ते सन्ति मानवा श्रद्धावन्तो न सूयन्तो मोच्यन्ते ते विकर्मभिः ये ते तदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् सर्वज्ञानविमूढास्तान् वेद्धिनस्तान चेतस ये ते तदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् सर्वज्ञानविमूढास्तान् वेद्धिनस्तान चेतस वसुदेव सुतं देवम् पञ्चजानूरमर्दनम् देवकीकरमानन्दम् कृष्णं वन्दे जगद्गुरुम् कृष्णं वन्दे जगद्गुरुम्
हरे शरणम् हरे शरणम् हरे शरणम् हरे शरणम 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 हरे शरणम।